कल्याणानां निधानाय श्रेयः प्रेयो विधायिने सुब्रह्मण्याय महते परस्मै ज्योतिषे नमः। कल्याणानां निधानाय श्रेयः प्रेयो विधायिने सुब्रह्मण्याय महते परस्मै ज्योतिषे नमः। स्वामिन्न शेष भुवनाधिपते नमस्ते श्रीमन्निलिम्पकुलमौलिमणे नमस्ते। धामन्नुहारतपसाङ्गतये नमस्ते। क्षेमाय जागृहि नृणां तव सुप्रभातम्। एते ऋणामलरुचः किरणादिगन्ते सन्तन्वते ऋणभुवो गगनं वितानं माणिक्यरञ्जितमिवाद्यतवालयस्य श्रीमत्कुमार भगवन् तव सुप्रभातम्। देवत्वदीय वचनं महतामलङ्घ्यम् सम्पालयन्नुदित एष सहस्रभानुः। कारुण्यपूर्णललिते क्षणपूतमेनं कर्तुं प्रसीद भगवन् तव सुप्रभातम्। ताराधिपः सहचरी सहितस्त्वदीयाम् आशीं वहन्नमृतमं शुभिरोषधीनां राजीषु देव परिषिच्य गतोस्तशृङ्गं स्वामिन् समस्तजगतां तव सुप्रभातम्। विश्वेशते भवनमेष तमो विहन्ता भानुः करैः परिमृजन् गणमप्युडूनां निर्माल्यमस्य विनुदन्नुपसेवते त्वां श्रीमत्कुमार जय सम्प्रति सुप्रभातम्। गायन्ति मञ्जुलरवा विहगाः समोदम् सोमांशु सौम्य यशसो भवतो वदानम्। हेरम्बसोदर दिशो विशदानि कामम् श्रीमत्कुमार गिरिजासुत सुप्रभातम्। माता तवाद्रितनया विनयानतं त्वाम् बाहूपगूहममरेन्द्र विनूतनेतुम् उत्सङ्गमुत्सुकमना मनसामगम्यम् श्रीमत्कुमार गिरिजात्मज सुप्रभातम्। यो मृग्यसे मुनिजनैर्गुहहृद्गुहायाम् यो राजसे महितवाङ्मनसाभ्यतीतः सोऽद्यस्थितोऽसि पुरतः करुणालयस्त्वं नेत्रोत्सवाय भजतां तव सुप्रभातम्। एते हुताश भवतुं गुरुनारदाद्याः गान्धर्वगाननिपुणाः सह वीणयाते गातुं यशोम्बरतलं त्वरयाश्रयन्ते श्रेयो निधे वरदते भवताद्विभातम्। चञ्चद्भुजप्रहितघोरशरप्रहारैः क्रौञ्चाद्रिभेदनमदाम्बुसृजां गजानां पञ्चास्यतारकपुरोगमदानवानां पञ्चाननात्मज विभो भवतु प्रभातम्। वायुर्विशाखसुमसौरभसारवाही कौमारधारजलशीकरशैत्यशाली वृक्षान्तरेषु मृदुमर्मरशब्दकारी त्वां सेवते गिरिशनन्दनसुप्रभातम्। स्नात्वा सरस्युषसिनाथसमागतानां वेदान् समाहितधिया पठतां मुनीनां व्रातो बहिस्त्वदवलोकनकौतुकानां तिष्ठत्यमेयमहिमन्तव सुप्रभातम्। एते मृदङ्गपणवानकशङ्खतालाः स्कन्दत्वदीयविमलोज्ज्वलकीर्तिमालाः वन्दिस्तुतिप्रचितकर्णसुखाः प्रवृत्ताः सुत्रामवन्दितपदास्तु तव प्रभातम्। वेदस्तुतामरमुखाखिललोकगीत प्रत्यक्षदैवत सतां प्रणतार्तिनाश योगीन्द्रसंयमितमानसराजहंस श्रीमत्कुमार जय जागृहि सुप्रभातम्। गौरीशलालितवपुर्वसतिशुभानां नागेशपूजितपदः पदवीयतीनां नाकेशसंस्तुतबलोऽसि फलं श्रुतीनां राकेशमुग्धमुखते भवतु प्रभातम्। शक्त्यानि गृह्य गुहतारकमिन्द्रशत्रुं नैशं तमो रविरिवा प्रतिमा प्रभावः हर्षाश्रुभिः सह सुरैरभिषेचितस्त्वं श्रीकार्तिकेय विजयी भव सुप्रभातम्। त्वत्तेजाकलयितुं कैः क्षमेत स्कन्दत्वदंशमपि वोढुमथोपयाता भागीरथी भगवती क्षुभिता कृशानुः भग्नश्च भर्गतनयास्तु तव प्रभातम्। धर्मस्य रक्षणमभीक्ष्य सुरेन्द्रहेतोः आविर्भवः शरवणे तव बर्हिकेतो क्लेशाब्धिमग्नजननिस्तरणैकसेतो श्रीमत्कुमार गुहजागृहि सुप्रभातम्। उषसि खलु गृणन्तो नाम ते तारकारे शरवणभवरम्ये पुण्यतीर्थेव गाह्य धृतनवजलकुम्भाद्वारि तिष्ठन्ति भक्ताः तव परिचरणार्थं वर्तते सुप्रभातम्। हिमकिरणरुचीनां फुल्लमल्लीसुमानां मरकतसमभासां खण्डबिल्विदलानां निकरमिह गृहीत्वा वृन्दमास्ते सुराणां वरिवसितुमिदानीं बाहुलेय प्रभातम्। कृतसुरवरबाधं शोकदं सज्जनानां యమని అమరతానామంతకం తారకంతం నిటిలతట విసర్పి భ్రూలతా భీమభంగం హతవతయితమస్తు స్కందతే సుప్రభాతం శివసుత శివదస్త్వం శూరపద్మాంతకస్త్వం వరదవరగుణస్త్వం శ్రేయసామాకరస్త్వం సదయ నయన భక్తాన్ పశ్య వశ్యాన్ సదాస్మాన్ తిమిరమిహ విలీనం స్వస్తితే సుప్రభాతం వివిధ కుసుమవర్ణానేష బర్హీ కలాపాన్ నయన సుభగ రూపానుత్కిరం సప్రమోదం సురుచిరశితి కంఠో వోఢుముత్కంఠతే త్వాం విబుధని వహ వంద్యం దేవతే సుప్రభాతం బ్రహ్మర్షి గణవంద్యాయ బ్రహ్మ విద్యాప్రదాయినే సుబ్రహ్మణ్యాయ శాంతాయ బ్రహ్మచర్యశ్రియే నమః వాసుకి ప్రతిరూపాయ ప్రణతార్థ విధాయినే దేవసేనా సమేత శ్రీ సుబ్రహ్మణ్యాయ మంగళం వేద వేదాంత వేద్యాయ ప్రణవార్థ స్వరూపిణే శ్రేయ ప్రేయో నివాస శ్రీ సుబ్రహ్మణ్యాయ మంగళం వినయానత భక్తాంతరంగనాథ నివేదితా సుబ్రహ్మణ్యేశ్వర స్వామిన్ నుతిరేషాస్తుతే ముదే సుబ్రహ్మణ్యేశ్వర స్వామిన్ నుతిరేషాస్తుతే ముదే.